इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी ह्यः असम बंगाल राज्ययोः 7,000 करोड़ रूप्यकाणां बहुविध विकास परियोजनानां शिलान्यासं कृतवान्। तेन असम बंगाल राज्याभ्यां 5 अमृत भारत एक्सप्रेस रेलयानानां हरितध्वजमपि प्रदर्शितम्। प्रधानमन्त्रिणा नरेन्द्रमोदिना असम राज्यस्य कालियाबोरे 9,960 करोड़ रूप्यकाणां काजीरंगा एलिवेटेड कॉरिडोर परियोजनायाः शिलान्यासः कृतः। यत् 80 किलोमीटर सुदीर्घ काजीरंगा एलिवेटेड कॉरिडोर प्रकल्पः पर्यावरणानुरूपं राष्ट्रीय राजमार्ग प्रकल्पः अस्ति। अस्मिन् 35 किलोमीटर उन्नत वन्यजीव मार्गः भविष्यति, यत् काजीरंगा राष्ट्रीय उद्यानस्य मध्यक्षेत्रात् गमिष्यति। परियोजनायाः उद्देश्यम् उद्यानस्य समृद्ध जैव विविधतायाः संरक्षणेन सुनिश्चितेन सह क्षेत्रीय सम्पर्कस्य अभिवृद्धिः अस्ति। प्रधानमन्त्रिणा असम राज्यस्य नागांव जनपदस्य कालियाबोर नगरे द्वयोः नूतनयोः अमृत भारत एक्सप्रेस रेलयानयोः हरितध्वजं प्रदर्शितम्। रेलयाने स्तः कामाख्या रोहतक अमृत भारत एक्सप्रेस, डिब्रूगढ़ लखनऊ गोमती नगर अमृत भारत एक्सप्रेस च। प्रधानमन्त्रिणा नरेन्द्रमोदिना पश्चिम बंगाल राज्यस्य हुगली मण्डलस्य सिंगूर नगरे 3,800 करोड़ रूप्यकाणां बहुविध विकास परियोजनानां उद्घाटनं शिलान्यासं लोकार्पणं च विहितम्। भारतीय जनता पार्टीति दलस्य राष्ट्रिय अध्यक्ष पदस्य निर्वाचनार्थम् अद्य नामांकनं भविष्यति। दलस्य राष्ट्रिय रिटर्निंग इति निर्वाचनाधिकारिणा के लक्ष्मण इत्यनेन प्रकाशितस्य मतदान कार्यक्रमस्य अनुसारं नामांकनं सायं 2-4 वादनपर्यन्तं भविष्यति। नामांकन पत्राणां परीक्षणं सायं 4-5 वादनपर्यन्तं भविष्यति। तदनन्तरं नामांकन निराकरणं सायं 6 वादनपर्यन्तं भविष्यति। नामांकन प्रक्रियायाः समाप्तेः अनन्तरं यदि आवश्यकं भवति तर्हि मंगलवासरे मतदानं भविष्यति। छत्तीसगढ़ राज्ये रात्रौ सुरक्षा सेना माओवादिनोः मध्ये संघर्षविरामः अभवत्। बीजापुर मण्डले शनिवासरात् संघर्षः निरन्तरं प्रचलति स्म। संघर्षस्थलात् इतोपि 2 शवौ प्राप्तौ। अनेनैव संघर्षे हतानां माओवादिनां कुलसंख्या 6 अभवत्, येषु 4 महिला माओवादिनः अपि सन्ति। संयुक्त अरब अमीरात देशस्य राष्ट्रपतिः शेख मोहम्मद बिन जायद अल नाहियान इत्येषः अद्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः आमन्त्रणे भारतस्य आधिकारिक यात्रायाम् आगमिष्यति। राष्ट्रपतिरूपेण कार्यभारग्रहणानन्तरं शेख मोहम्मद बिन जायद इत्यस्य भारतस्य एषा तृतीयाधिकारिक यात्रा भविष्यति, तथा च विगत 10 वर्षेषु तस्य 5मं भ्रमणं भविष्यति। पोलैंड देशस्य उपप्रधानमन्त्री तथा विदेशमन्त्री राडोस्लाव सिकोरस्की त्रिदिवसीय भारत यात्रायामस्ति। सः अद्य नवदिल्ल्यां विदेशमन्त्रिणा डॉ एस जयशंकरेण सह मेलनं करिष्यति। विदेश मंत्रालयस्यानुसारं पोलैंड देशः मध्य पूर्वी यूरोपे भारतस्य बृहत्तमः व्यापार निवेश सहभागी अस्ति। भारत ऋतु विज्ञान विभागेन अद्य उत्तर प्रदेशे सघन निहाराच्छादनस्य संभावना प्रकटिता अस्ति। तत्रैव दिल्ली पंजाब हरियाणा चंडीगढ़ बिहार प्रदेशेषु सघन कुज्झटिका भविष्यति। पश्चिम राजस्थाने उपहिमालयीय पश्चिम बंग प्रदेशे सिक्किम प्रदेशे च सघन कुज्झटिकायाः स्थितिः भविष्यति। आगामिषु 24 होरासु हिमाचल प्रदेशे ओडिशा राज्ये च कुज्झटिकायाः स्थितिः भविष्यति। जम्मू कश्मीरस्य लद्दाखस्य गिलगिट बाल्टिस्तानस्य मुजफ्फराबादस्य हिमाचल प्रदेशस्य च केषुचित् भागेषु अल्पवृष्टिः हिमपातः वा भवितुमर्हति। पुरुष क्रिकेट क्रीडायाम् इन्दौर नगरस्य होलकर क्रीडांगणे न्यूजीलैंड दलेन भारतम् 1-4 धावनांकैः पराजितम्। इति वार्ताः।